इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। चतुर्णां चरणानां मतदानं समाप्तेः अनन्तरं लोकसभा निर्वाचनस्य शेषत्रयाणां चरणानां कृते प्रचाराभियानं द्रुतगत्यां प्रचलति। विभिन्न राजनीतिक दलानां वरिष्ठ नेतारः देशस्य विभिन्नेषु भागेषु बहुविध सभाः सम्बोधयन्ति, पथप्रदर्शनं च कुर्वन्ति। प्रधानमन्त्री तथा च भाजपादलस्य वरिष्ठ नेता नरेन्द्रमोदी गत सायं झारखण्डस्य कोडरमा गिरिडीह क्षेत्रयोः सभां सम्बोधितवान्। श्रीमोदी अवदत् यत् एनडीए सर्वकारेण देशे नक्सल हिंसाः नियन्त्रिताः अपि च जम्मूकश्मीरात् 70+ अनुच्छेदस्य निरसनं भारतस्य हिताय कृतमस्ति। भाजपेति दलाध्यक्षः जेपी नड्डाः ह्यः मन्त्रिणः स्मृति ईरान्याः समर्थने उत्तरप्रदेशस्य अमेठी जनपद स्थिते मुंसीगंज इत्यत्र नैर्वाचनिक जनसमूहं सम्बोधितवान्। तत्रैव विपक्षदलात् अस्मात् क्षेत्रात् कांग्रेसदलप्रत्याशी किशोरी लाल शर्मास्ति। श्रीनड्डा अवोचत् यत् एनडीए सर्वकारस्य उपक्रमाणां कारणात् अद्य भारतं पेट्रोकेमिकल ऑटोमोबाइल्स क्षेत्रयोः विश्वस्य तृतीय स्थानं भजते। अपरपक्षे कांग्रेसनेत्री प्रियंका गांधी अपि अमेठीनगरे जनसभां कृतवती। उत्तरप्रदेशस्य झांसीनगरे कांग्रेसदलस्य वरिष्ठनेता राहुलगांधी समाजवादीपक्षस्य प्रमुखेन अखिलेशयादवेन सह संयुक्तसभां सम्बोधितवान्। लोकसभा निर्वाचनस्य सप्तान्तिमचरणाय नैर्वाचनिक नामांकनपत्रपूरणस्य ह्यः अन्तिमं दिनम् आसीत्। एतस्मिन् चरणे सप्तराज्यानां एकस्य च केन्द्रशासितप्रदेशस्य 57 आसनेभ्यः मतदानं करिष्यते। उत्तरप्रदेश पंजाबयोः 13, पश्चिमबंगस्य 9, बिहारस्य 8, ओडिशायाः 6, हिमाचलप्रदेशस्य 4, झारखण्डस्य 3, केन्द्रशासितप्रदेशस्य चण्डीगढस्य 1 च आसनेभ्यः मतदानं विधास्यते। प्रदत्तनामांकनपत्राणाम् अनुसन्धेयकार्यम् अद्य भविष्यति। तत्रैव शुक्रवासरं यावत् नामांकन प्रत्यावर्तनं कर्तुं शक्यते। अस्मै चरणाय मतदानं अग्रिममासस्य प्रथमे दिवसे निर्धारितं विद्यते। ह्यः फ्रांसदेशस्य कांस नगरे 77तमस्य कांस चलचित्रोत्सवस्य आयोजनं समारब्धम्। द्वादशदिवसात्मकेऽस्मिन् आयोजने भारतम् अपि प्रातिभाग्यं विदधाति। भारतीय प्रतिनिधिमण्डले भारत प्रशासनं राज्य प्रशासनानि चलचित्र जगतः सदस्याश्च सम्मिलिताः सन्ति। भारतं प्रथमवारं अवसरेऽस्मिन् भारत पर्वणः आतिथ्यं विधास्यति। कांसे भारतमण्डपं भारतीय चलचित्र समुदायाय विभिन्नेषु गतिविधिषु सहभागितायै समेकित मञ्चत्वेन कार्यं विधास्यति। मुष्टामुष्टि प्रतियोगितायां भारतस्य गौरव चौहानः ह्यः कजाकिस्तान देशस्य आस्ताना नगरे एलोडा चषकस्य पुरुषाणां 92 किलोग्राम भारमितस्य उपान्त्यचक्रीय द्वन्द्वे प्रविष्टवान्। सः डेनियल सपरवे इत्येतं 3-2 इत्याङ्कान्तरालेन पराजित्य देशाय पदकं सुनिश्चितवान्। आईपीएल इत्येतस्यां क्रिकेट मालिकायां नवदिल्ल्याः अरुण जेटलीति प्रख्याते क्रीडांगणे ह्यः दिल्ली कैपिटल्स दलेन लखनऊ सुपर जायंट्स दलं 29 धावनांकैः पराजितम्। अध्यात्मके द्वन्द्वे राजस्थान रॉयल्स पंजाब किंग्स दलयोः मध्ये गुवाहाटी क्रीडांगणे स्पर्धा सायं 7:30 भविष्यति। इति वार्ताः।